ओम नमो भगवते वासुदेवाय। अथाष्टमोऽध्यायः। मैत्रेय उवाच, सत्सेवनीयो बतपूरुवंशो यल्लोकपालो भगवत्प्रधानः, बभूविथेहाजितकीर्तिमालां पदे पदे नूतनयस्य भीक्ष्णम्। सोहन्द्रिणां क्षुल्लसुखाय दुःखं महद्गतानां विरमाय तस्य। प्रवर्तये भागवतं पुराणं यदा साक्षात् भगवान् ऋषिभ्यः। आसीनमुर्व्यां भगवन्तमाद्यं सङ्कर्षणं देवमकुण्ठसत्त्वम्। विविधसवस्तत्वमतः परस्य कुमारमुख्या मुनयोऽन्वपृच्छन्, त्वमेव तृष्ण्यं बहुमानयन्तं यं वासुदेवाभिधमामनन्ति। प्रत्यग्धृताक्षाम्बुजकोशमीश दुन्मीलयं तं विबुधोदयाय। स्वर्धुन्युदार्द्रैः स्वजटाकलापैरुपस्पृशं तश्चरणोपधानम्। पद्मं यदर्चन्त्य हि राजकन्या सप्रेम नानाबलिभिर्वरार्थाः, मुहुर्गृणन्तो वचसानुरागस्खलत्पदेनास्य कृतानि तज्ज्ञाः। किरीटसाहस्रमणिप्रवेक प्रद्योतितोद्दामफणा सहस्रम्। प्रोक्तं किलैतद्भगवत्तमेन निवृत्तिधर्माभिरताय तेन। सनत्कुमाराय स चाह पृष्टः साङ्ख्यायनायाङ्गधृतव्रताय। साङ्ख्यायनः पारमहंस्य मुख्यो विवक्षमाणो भगवद्विभूतिः। जगादसोऽस्मद्गुरवेऽन्विताय पराशरायाथ बृहस्पतेश्च। प्रोवाच, मह्यं स दयालुरुक्तो मुनिः पुनस्तेन पुराणमाद्यम्। सोऽहं तवैतत् कथयामि वत्स श्रद्धालवे नित्यमनुव्रताय। उदाप्लुतं विश्वमिदं तदासीत् यन्निद्रयामि लितदृङ्यमीलयत्। अहीन्द्रतल्पे दिशयान एकः कृतक्षण स्वात्मरतौ निरीहः। सोऽन्तः शरीरेऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिमुदीरयाणः। उवास तस्मिन् सलिले पदे स्वे यथा नलो दारुणिरुद्धवीर्यः। चतुर्युगानां च सहस्रमप्सु स्वपन् स्वयोदीरितया स्वशक्त्या। कालाक्षया साधितकर्मतन्त्रो लोकानपि तान् ददृशे स्वदेहे। तस्यार्थसूक्ष्माभिनिविष्टदृष्टेरन्तर्गतोऽर्थोरजसातनीयान्। गुणेन कालानुगतेन विद्धः सूस्यं सदाभिद्यतनाभिदेशात्। सपद्मकोश सहसोदतिष्ठत् कालेन कर्म प्रतिबोधनेन। स्वरोचिसा तत्सलिलं विशालं विद्योतयन्नर्क इवात्मयोनिः। तल्लोकपद्मं सौ एव विष्णुः प्रावीविशत् सर्वगुणावभासम्। तस्मिन् स्वयं वेदमयो विधाता स्वयंभुवं यं स्म वदन्ति सोऽभूत्। तस्यां स चाम्भोरुहकर्णिकायामवस्थितो लोकमपश्यमानः। परिक्रमन् व्योम्नि विवृत्तनेत्रश्चत्वारि लेभेऽनुदिशं मुखानि। तस्माद्युगान्तश्वसनावघूर्ण जलोर्मिचक्रात् सलिलाद्विरूढम्। उपाश्रितः कञ्जमुलोकतत्त्वं नात्मानमद्धा विददादिदेवः। क एष योऽसावहमब्जपृष्ठ एतत्कुतो वाब्जमनन्यदप्सु। अस्ति यदस्तादिह किञ्चनैतदधिष्ठितं यत्र सतानुभाव्यम्। स इत्थमुद्वीक्ष्य तदब्जनालनाडीभिरन्तर्जलमाविवेश। नार्वागतस्तत्खरनालनालनाभिं विचिन्वन् सदविन्दताजः। तमस्य पारे विदुरात्मसर्गं विचिन्वतोऽभूत् सुमहान् स्त्रिणेभिः। यो देहभाजां भयमीरयाणः परीक्षिणोत्यायुरजस्य हेतिः। ततो निवृत्तो प्रतिलब्धकामः स्वधिष्ण्यमासाद्य पुनः स देवः। शनैर्जितश्वासनिवृत्तचित्तो न्यषीददारूढसमाधियोगः। कालेन सोजः पुरुषायुषाभिप्रवृत्तयोगेन विरूढबोधः। स्वयं तदन्तर्दयेव भातमपस्य तापस्य तयन्न पूर्वम्। मृणालगौरायतशेषभोगपर्यङ्क एकं पुरुषं शयानम्। फणात्पत्रायुतमूर्धरत्नद्युभिर्हतध्वान्तयुगान्ततो ये। प्रेक्षां क्षिपन्तं हरितोपलाद्रेः सन्ध्याब्रनीवे रुरुक्ममूर्ध्नः। रत्नोदधारौषधि सौमनस्य वनस्रजो वेणुभुजाङ्घ्रिपाङ्घ्रेः। आयामतो विस्तरतः स्वमान देहेन लोकत्रयसङ्ग्रहेण। विचित्रदिव्याभरणांशुकानां कृतश्रियापाश्रितवेषदेहम्। पुंसां स्वकामाय विविक्तमार्गैरभ्यर्चतां कामदुघाङ्घ्रिपद्मम्। प्रदर्शयन्तं कृपया नखेन्दुमयूखभिन्नाङ्गुलिचारुपत्रम्। मुखेन लोकार्तिहरस्मितेन परिस्फुरत्कुण्डलमण्डितेन। शोणायितेनाधरबिम्बभासा प्रत्यर्हयन्तं सुनसेन सुभ्र्वा। कदम्बकिञ्जल्कपिशङ्गवाससा स्वलङ्कृतं मेखलया नितम्बे। हारेण चानन्तधनेन वत्स श्रीवत्सवक्षस्थलवल्लभेन। परार्ध्यकेयूरमणिप्रवेकपर्यस्तदोर्दण्डसहस्रशाखम्। अव्यक्तमूलं भुवनांग्रिपेन्द्र महेन्द्र भोगैरधिवीत वल्षम् चराचरौ को भगवन् महीत्र महेन्द्र बन्धुम् सरिलोपगूढम् किरीट सहस्र हिरण्य श्रृङ्गम् आविर्भवत् कौस्तुभ रत्न गर्भम् निवेतमाम्नाय मधुव्रत श्रिया स्वकीर्तिमय्या वनमालया हरिम् सूर्येन्दु वायुवज्ञ गमम् त्रिधामपि परिक्रमत् प्राधनिकैर्दुरासदम् तर्येव तन्नापि सरस्सरोजमात्मानमम्ब श्वसनम् वियच्च ददर्श देवो जगतो विधाता नातः परम् लोकविसर्ग दृष्टिः सकर्म बीजम् रजसोपरक्त प्रजासिसृक्षन्निय देव दृष्ट्वा अस्तौ द्विसर्गाभिमुखस्तमीड्यमव्यक्तवर्त्मन्यभिवेशितात्मा ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीयस्कन्धेष्टमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।